सर्वेषां स्वागतं ध्येयमन्त्रेण पाठम् आरम्भं कुर्मः अस्तु
पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरं संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरं संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरं हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्षं ननु कुर्यात् विश्वं शान्ति समन्वितम्
पुनः वदतु महोदय संरक्ष्य ननु कुर्याम विश्वं शान्ति समन्वितम्
संरक्ष्य ननु कुर्याम विश्वं शान्ति समन्वितम्
उत्तमं महोदय धन्यवादः
धन्यवादः
धन्यवादः अस्तु गतवर्गे वयं किं कृतवन्तः अभ्यासदर्शिन्यां सप्तमी विभक्ति अभ्यास खलु सप्तमी विभक्तियुक्त अभ्यासान् कृतवन्तः सो अत्र पुनरेकवारं सप्तमी विभक्ति विभक्तेः रूपम् अपि च कुत्र आगच्छति इति एकवारं पश्यामः सप्तमी विभक्ति रूपाणि कानि सप्तमी विभक्तेः रूपाणि कानि रामे रामयोः रामेषु हस्तः इति अस्ति चेत् हस्ते हस्तयोः हस्तेषु हस्ते हस्तयोः हस्तेषु वृक्षे वृक्षयोः वृक्षेषु अकारान्तपुल्लिङ्गे एवं भवति नपुंसकलिङ्गे कथं भवति समानरूपमेव गृहं गृहं गृहे गृहयोः गृहेषु वनं वने वनयोः वनेषु नगरं नगरे नगरयोः नगरेषु योः योः आगच्छति योः नगरं नगरयोः नगरेषु इत्यादि आकारान्तस्त्रीलिङ्गपदं वाटिका वाटिका यां वाटिकयोः वाटिकासु पाठशाला पाठशालायां पाठशालयोः पाठशालासु अस्तु ईकारान्तस्त्रीलिङ्गपदं नदी नद्यां नद्योः नदीषु कूपी कूप्यां कूप्योः कूपीषु दूरवाणी दूरवाण्यां दूरवाण्योः दूरवाणीषु अस्तु अग्रे सर्वनामपदानि सर्वनामपदानि इत्युक्ते सर्व फर् आल् द पदम् इति अर्थे सर्वासु पदासु सर्वासु वा न सर्वेषु पदेषु एवमेव भवति सर्वं सर्वे सर्वेषु सर्वेषु पदेषु एवमेव रूपाणि भवन्ति उदाहरणार्थं पुल्लिङ्गे तद् इति मूलपदं तद् इति मूलपदे पुल्लिङ्गे तस्मिन् तयोः तेषु नपुंसकलिङ्गे अपि समानमेव तस्मिन् तयोः तेषु तस्मिन् तयोः तेषु तस्मिन् तयोः तेषु आकारान्त स्त्रीलिङ्गपदानि सर्वासु एवमेव भवति तस्यां तयोः तासु तस्यां तयोः तासु तस्यां तयोः तासु अस्तु भवत् शब्द पुल्लिङ्गे भवति सम्यक् भवति इति पदे अपि भवति एव शैत्य नमस्कारः महोदय
नमस्कारः भगिनि
नमस्कारः महोदय अधिकं शैत्यं भवति अत्रापि भवति एव ह्रस्वं भवति भवती अत्र आगच्छतु अत्र दीर्घं भवति कृपया म्यूट् म्यूट् करोतु धन्यवादः भवती अत्र आगच्छतु तत्र भवती दीर्घं भवति दीर्घं भवति अत्र भवति ह्रस्वं भवति अत्र भवति इति अस्ति अर्थः कः भवत् शब्दस्य सप्तमी विभक्ति उदाहरणार्थं भवान् अत्र अस्ति भवति मम आधारः अस्ति इन् यू इति अर्थं भवति मम आधारः अस्ति अस्तु भवति भवतोः भवत्सु भवति भवतोः भवत्सु अत्र स्त्रीलिङ्ग भवती इति पदं स्त्रीलिङ्गपदवत् एव भवति भवत्या
एकः प्रश्नः
अस्तु भगिनि
ह्रस्व भवति दीर्घ भवति पुनरेकवारं वदतु भगिनि
अस्तु अस्तु अत्र एकनिमिषं भगिनि न आगच्छति अस्तु अत्र भवती अत्र आगच्छतु भवती आगच्छतु इत्युक्ते किं भवती आगच्छतु
श्रीलिङ्गे
महिला अत्र स्त्रीलिङ्गमहिला भवती आगच्छतु अस्तु पाकं कथम् अस्ति न पाकं न शैत्यं वातावरणं वातावरणं सम्यक् भवति वा आं सम्यक् भवति
न भगिनी सम्यक् न भवति
अस्तु सम्यक् न भवति अस्तु सम्यक् न भवति अत्र ह्रस्वमेव अस्ति भवति
अस्तु अस्तु
भवती स्त्रीलिङ्ग एकवचन प्रथमाविभक्तिरूपम् ओके प्रथमाविभक्ति स्त्रीलिङ्ग एकवचनरूपम् अत्र भवति इति भूधातु भूधातु तिङन्तपदम् इत्युक्ते लकार भवति भवन्ति सर्वे भवन्ति खलु सर्वे कुशलिनः भवन्ति सः कुशली भवति सो अत्र भवति इति एवं नास्ति एवमपि नास्ति भिन्नरूपं भवान् भवान् इति पदस्य सप्तमी विभक्ति भवान् पदस्य सप्तमी विभक्ति भवति अत्र भवत् पदस्य स्त्रीलिङ्ग प्रथमाविभक्ति एकवचनम् अत्र भवति इति भूधातोः लट्लकाररूपं लट्लकारम् इत्युक्ते वर्तमानकालरूपम् कथं कथं भवति 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 वाट् इस् डिफ्रेन्स् बिट्वीन् अस्ति अण्ड् भवति अस्ति भवति इत्ययोः भेदः कः भेदः कः अस्तु निश्चयेन वदति वा कोऽपि वदति वा
अस्ति अर्थम् इस् इट् इस् भवति इति पदस्य अर्थं टु बिकम् इट् विल् हेपन्
इट् विल् हेपन् नाट् कम्प्लीट्लि श्योर् इति अर्थे
अस्ति इस् प्रेसेण्ट् टेन्स् अण्ड् भवति इस् फ्यूचर् टेन्स्
No, Bhavati is also present, Eva.
Okay.
Parantu, udaharanam vadami. Aapane, lekani, lekanyaha bhavanti. Atava lekani bhavati. That means it must be there. Not 100% sure.
Right.
So there is a bit of sandehaha there. Sandehaha.
Right.
Chinchit. Karyakramaha samyakeva bhavati.
Tentative.
Yeah. Not 100% sure. Samyakeva bhavati. It must be good. Vatavaranam samyakeva bhavati. Atava samyak na bhavati. Paranthi samyak asti means definitely. Idanim samyak asti. Idanim samyak nasti. Iti arte asti.
Bhagini, since you have a question, one question comes to me. See, why asmin comes in here? Because asmin is a commonly used thing in many pujas and all. Tadis asmin, asmadi bhai, where does asmin fit in?
Good question. So when we say eshaha, esha, etat, so that we have learned. Oh, I don't know what's happening. I don't know why this happens sometimes. So we have eshaha, esha, and etat kalo. The same way we have I am, imam, and idam. So I am is pullinga.
Okay.
Imam strilinga. Idam is napumsakalinga. So when you say asmin bimbe, so that is the napumsakalinga padam. Asmin bimbe, like that.
Namaste bhagini.
Namaste bhagini. Namaste.
Asmin and maya, I was just wondering where does asmin go on? That's it. Okay.
Yeah, it's the same thing, but we use a different word.
Okay.
Yeah, that's it. For example, it is here. No, it's not here. Okay. I thought I had it here. So asmin. So we have the idam shabdam. Idam shabdaha asti. Idam shabdam upayogam kurmaha che tatra asmin agachati. Asmin pullinge napumsakalinge api samana rupam. Okay, it's a different word, like sarva, like that.
So it comes in with the same grouping, depending on the context, the word changes.
Yeah.
Bhagini, ekka prashnaha asmi.
Asti va? Asti.
Bhagini, bhavati means when we have to tell some lady that bhavati use, right? And adya vrushti bahu asti.
Like means idani, right now vrushtihi asti.
Vrushtihi asti. But vrushtihi bahu bhavati.
Bhavati means it is going to happen, like that.
Okay.
Not 100% sure, like that. Okay. अस्तु अन्य प्रश्नः वा ऐ सी अ चेट् किमपि प्रश्नः वा चेट् मध्ये
भगिनि केन् यु जस्ट् सेण्ड् दट् सप्तमी टेबल् विच् यु शोड् जस्ट् लिटल् बिफोर्
या ऐ आलरेडि सेण्ट् इट् भगिनि इट् इस् ऐ एम् जस्ट् शोयिङ्ग् इट् इन् अ बिगर् फार्म् दट्स् आल्
ओ दिस् वन् यु सेण्ट् इट्
या यु आलरेडि सेण्ट् इट्
One.
Okay,
yes,
this
Bhagini,
is,
we have it.
Yeah, we have. Yeah.
You sent it by email, is it?
I sent it email as well as WhatsApp. So if you want me to send it again, I can send it. No problem.
If you can, I think I've missed it.
No problem.
If you can send it again, it will be helpful. After. Thank you.
Can you all mute, please? Atava aham mute karon. Astu. So if we go to Vibhakti Vallari, अत्र कुत्र वयं सप्तमीविभक्तिरूपम् उपयोगं करणीयम् इति अत्र अस्ति. एकमस्ति आधारः. आधारः इत्युक्ते कुत्र अस्ति? देन् वि हेव् दि आन्सर्. बेङ्गलूरुनगरे, प्रकोष्ठे, वाटिकायां, विपण्याम् इत्यादि वयं जानीमः. ओके, वि नो दिस् आल्रेडि. अनदर् थिङ्ग् इस् कदा. Kada is not given in this Vibhakti Vallari, but we also know Kada. Ekanimsham. So Atra. Atra na. I just change. So Atra asti. Kutra upayogam kurmaha. हस्ते, गृहे, वाटिकायां, नद्याम् अस्ति. अनदर् वन् आन्सर् टु वेन्, कदा. गतवर्षे, वर्षं वर्षे, मासः मासे, वासरः वासरे, कालः काले, वादनं वादने, अमावास्या अमावास्याम्, एकादशी एकादश्याम्, रात्रिः रात्रौ. सो दीस् टु वि आलरेडि नो, कुत्र, कदा. अण्ड् लास्ट् वीक् वि वर्क्ड् आन् दिस् खलु, यत्र विशेष आदरः प्रदर्शयामः. उदाहरणार्थम् आसक्तिः, आदरः, प्रीतिः, अभिरुचिः इत्यादीनि पदानि आगच्छति चेत् तत्र अपि सप्तमीविभक्तिरूपं भवति. ओके, वेन् वि हेव् विशेष अफेक्षन्, विशेष रिस्पेक्ट्, आदरः, अभिरुचि. ऐ हेव् इण्ट्रेस्ट् इन् स्टडियिङ्ग् संस्कृतं. संस्कृतपठने मम आसक्तिः अस्ति, मम अभिरुचिः अस्ति. सेम् मीनिङ्ग्, अभिरुचिः अस्ति. प्रीतिः अस्ति, समानरूपं, प्रीतिः. आदरः, रिस्पेक्ट्. कृपा, what's the meaning of कृपा?
Courtesy.
दया is more like दया. कृपा, दया. What did you say, महोदय?
Mercy.
भगिनी प्लीज् नो, कृपा, कृपया वदतु.
आमां, कृपया वदतु. कृपया वदतु, सम्यक्. कृपया वदतु, अस्तु. अभ्यासदर्शिनी न विभक्तिवल्लर्यां. सो आदरः संस्कृते जनाः प्रीतिं प्रदर्शयति. वयम् एतत् पठितवन्तः गतवर्गे. अस्मिन् वर्गे, एतस्मिन् वर्गे किं पठामः? स्निह्यति, विश्वसिति. एतयोः धात्वोः प्रयोगे अपि सप्तमी भवति. यत् सो अत्र पश्यतु, भवति. स्निह्यति, विश्वसिति इत्येतयोः धात्वोः प्रयोगः यत्र भवति तत्र स्नेहस्य, विश्वासस्य च यत् पात्रं तस्य सप्तमी विभक्तिः भवति. अत्रापि भवति, नोटेड्. मात्रा पुत्रे विशेषतः स्निह्यति. दर् इस् अ स्पेशल् फ्रेण्ड्शिप् बिट्वीन् माता अण्ड् पुत्रः. ऐ एम् गोयिङ्ग् टु म्यूट् पीपल् अगेन्. अस्तु. माता पुत्रे विशेषतः स्निह्यति. कस्मिन् विशेषतः स्निह्यति माता पुत्रे? इफ् इट् इस् पुत्री, कथम् आगच्छति, कथं भवति? माता पुत्र्यां विशेषतः स्निह्यति. So the snihyati can be changed to sneham pradarshayati. Sneham pradarshayati. Mata putriyam visheshatah sneham pradarshayati. So, atra snihyati visvasitu. Visvasitu itikte. What is the meaning?
Trust.
Ah, trust. Faith. Trust, faith ityadi. Astu. Sah vanchakah atah. How will we finish the sentence?
Tasmin
ma vishvasito. Kimartam tasmin ma vishvasito. Sah vanchakah. Atah eva.
Don't put your trust in him.
Don't trust him. In him. Don't put your trust in him. In him. Atava Angila Bhashayam, don't trust him. Like that. So Atra Ma Vishvasitu means don't trust. Saha will become in him. So it will change to don't put your trust in him. Like that. Ye Janaha Sneham Pradashyati Te Janaha Snihyanti. Ye Bahuvachanam Katam Bhavati Atra.
Janeshu.
Ye Janeshu Sneham Pradarshayati.
Teshu
Janaha Snihyanti. Snihyanti. What is the meaning here? Ye Sneham Pradarshayanti.
Uske paas jate hain.
Uske paas Sneham Karotu iti. Kalo. I'm mixing up Hindi and Sanskrit.
Those who express affection, let's go.
To them we affect. To them the other people also express affection.
We love people who express their sneha. I mean love.
Yeah. We love people who love people. Kado. Ye janeshu sneham pradarshayanti. Teshu janaha api snihyanti. So it goes back to them like that. Astu. Ravanaha sva shaktihi adhikam vishvasitavan.
Shaktim.
Shaktihi will become shaktau. Correct. Shaktau. Ratrihi ratrau. Ravanaha sva shaktau adhikam vishvasitavan.
Bhagini, how sva shaktau? Shastitihi is vishvachanam and...
Yeah, so we go to this chart, Mahodaya. Ikaranta. Shaktihi. Strilinga padam. So it is a hrasva ikaranta padam. So we can say shaktau or shaktyam api. Shaktihi is an ikaranta padam. So we can say sva shaktyam or sva shaktau. Dau api samana.
Bhagini like Gauriyam, right?
Gauriyam.
How will we know whether Swashakti is pulling or strilling?
So let's say you think it is pulling, we can say Shaktau.
Shaktau, right. Right.
So if you think it is strilling, Shaktau is also okay.
Okay, right.
Atava Shaktyam. But it is good to know. Yeah, it's good to know.
Right. So Shaktyam is a little risky, right? I mean, only if we are sure that it is Strilinga.
But in the beginning, Bhagini, if you want to know Pullinga, Strilinga, you better know.
Right.
So if you don't know, you have to look in the dictionary.
Right.
Okay.
Let's
see.
Hello?
Okay, so we are going to find out now, Mahodaya. Shakti. Strilinga Pada. As well as Pullinga Pada. They are both there. Okay, so the Shakti, his own power, strength. Here it means ability, energy. So it can be both Pullinga as well as Strilinga. So in this context, I think it is more of Pullinga.
Power.
Or it could be ability too.
Okay. Ravanaha is okay. Right.
Okay, I'm going to mute, I think, Parameshwar Mahadev.
Dhanyavada Bhagini.
Dhanyavada. So like that...
Pullingam also, then Shakto only. That's why the Harav.
Harav. But it's good to know. If you have a doubt, it's good to know. Astu. Ravanaha Sva Shaktau Atava Sva Shaktyam Adhikam Vishvasitavan Tadattameva Saha Ravanam Iti Asti Kalo Ravanam Iti Asti Chet Ravanam Kaha Yuddham Kritavan Ramaha. अस्तु रावणेन सह युद्धं कृतवान् रामः किमर्थम् इत्युक्ते रावणः स्वशक्तौ अधिकं विश्वसितवान् अतः एव सः युद्धं कृतवान् रामेण सह रामः रावणेन सह रावणः रामेण सह अस्तु यानं विश्वस्य गतः अहं मूर्खः सञ्जातः Okay, this is the one we haven't learned before. So atra gataha is a we can change it to gatavan. Okay, so these are actually like two sentences put together. Okay, so we can change it to gatavan. याने विश्वासं कृत्वा अहं गतवान् ओके लेट्स जस्ट इग्नोर दिस वन और इफ यू वांट आई विल एक्सप्लेन विश्वासं
भगिनी देयर इज अ विश्वास विश्वस्य
या सो वी चेंज दैट टू विश्वासं याने विश्वासं कृत्वा अहं गतवान् अहं मूर्खः सञ्जातः ऐ बिकेम् अ फूल् सो बेसिकली इट् इस् याने अहं विश्वासं कृत्वा गतवान् अवगतं वा इट्स् ओके इवन् इफ् यु डोण्ट् अण्डर्स्टाण्ड् इट्स् ओके याने अहं विश्वासं कृत्वा गतवान् अतः अहं मूर्खः सञ्जातः I became a fool because I put the trust in the car. Yane aham vishvasya gatavan. Gataha. Aham gataha. It is I who had gone. Having faith in the car. That is the artha. So we have gataha, sanjataha, santushtaha. These are all Tha Pratyaya, which we haven't learned. Okay? Astu. Agre. Bhavataha Vachanani Vishvasya Aham Agre Gatavan. So it's the same sentence meaning. Astu. Sagari Bhagini?
Aam Bhagini.
Bhavataha?
Bhavataha Vachaneshu Vishvasya Aham Agre गतवान्
उत्तमं भवतः वचनेषु विश्वस्य अहम् अग्रे गतवान्
हियर् विश्वस्य इस् बेसिकली विश्वासस्य
विश्वासं कृत्वा दट्स् वाट् इट् मीन्स् विश्वास भवतः वचनेषु विश्वासं कृत्वा अहम् अग्रे गतवान्
But Vishwam means world also. How would the spelling difference between this Vishwam and the world Vishwam same?
Yeah, so it depends on the context.
Okay, spelling is same.
Spelling is same. Vishwam, Vishwasi.
Bhagani, Vishwasya Lebanta Rupa Stiva?
I got this is the previous one. Yanam Vishwam means somebody going on a vehicle and to world tour, something like that. That's what my mind worked.
No, no, your mind is on a world tour, Mahodaya. I know that. That's why you're thinking like that. No, it's not true.
No. Lebanta Rupa Stiva?
Lebanta Meva, Vishwasya. Vishwasam Kritva, Vishwasya. No, but this doesn't look like a Labantam, Kalo, Vishwasya. But it is Labantam. Vishwasam Kritva, Aham Agre Gatavan. Bhavataha Vachaneshu, Vishwasya, Aham Agre Gatavan. Vishwasam Kritva, Aham Agre Gatavan. Astu, Ketaki Bhagini Agre. Dasharataha
putraha adhikam snehati sma putreshu.
Putreshu dasharataha. Samyak
dhanyavada.
Dasharataha putreshu adhikam snehati sma. Astu, Savita Bhagini.
Aam Bhagini. Yaha durjaneshu snehati sa avashyam hani प्राप्नोति. यः दुर्जनेषु निह्यति सः अवश्यं हानिं प्राप्नोति.
हानिं प्राप्नोति. हानिम् इत्युक्ते
हानि मीन्स्
समथिङ्ग्
डिस्ट्रक्षन् डिस्ट्रक्षन् बेड्
डिस्ट्रक्षन् सः यः दुर्जनेषु स्निह्यति स्नः अवश्यम् अवश्यम् इत्युक्ते निश्चयेन
undoubtedly, yeah.
Nischayena hanim
prapnoti.
He will get something bad coming to him, destruction coming to him. Astu. Savita Bhagini, Savita Bhavat. Sharada Bhagini.
Rajani ti janaha. Bhavantah kadapi ma vishwasantu. Rajaniti janeshu bhavantah kadapi ma vishvasantu.
Uttama. Astu. Agre gachamaha. Anyekam asti indrajit maya sitam kesheshu grihitavan. Itte tasmin vakye grahana kriyayah karma sita. इन्द्रजित् सीतां गृहीतवान्. सीतां कुत्र गृहीतवान्?
केशेषु.
केशेषु.
बै हेर्.
बै द हेर्. ओके. कर्मभूतायाः सीतायाः अङ्गे केशे इन्द्रजित् गृहीतवान्. केशे इति एकवचने, अतः केशेषु एवं कर्मणः. यस्मिन् अङ्गे ग्रहणम् अथवा ताडनम् भवति तत्र सप्तमी विभक्तिरूपं भवति. तस्य अङ्गस्य सप्तमी विभक्तिरूपं भवति. अस्तु, एतदपि पठामः. अधः कर्तृपदं कर्मपदं कर्मणः अङ्गं क्रिया च कर्म. दिस् इस् वेरि डिफिकल्ट्. क्रमेण निर्दिष्टन्ति सन्ति तेषां साहाय्येन पूर्णानि वाक्यानि रचयत. सो पुनः पठामि. अधः कर्तृपदं सः खलु कर्ता. कर्मपदं कर्मणः अङ्गम्. सो अत्र कर्मन् इस् अ नकारान्तपदम्. नकारान्तपदस्य षष्ठी विभक्ति अस्ति कर्मणः. सो वी हेवेन्ट् लर्न्ड् दिस् ईदर्. ओके. कर्मणः अङ्गम् ओके इत्युक्ते हू इस् बीङ्ग् काट् ग्रहणं ताडनम् इत्यादि कं प्रति अस्ति अत्र सीता इति अस्ति खलु इन्द्रजित् माया सीतां गृहीतवान् कां गृहीतवान् सीतां गृहीतवान् अत्र सीता एव कर्मपदम् सीतायाः कस्मिन् अङ्गे गृहीतवान् सो अत्र कस्य कर्मणः कस्य अङ्गम् केश सो अत्र कस्य अङ्गं केशः केशस्य इति केशस्य सीतायाः अङ्गः अस्ति केशः इति एकवचनं केशे अत्र केशेषु बहुवचनरूपम् अस्तु उदाहरणं सः अहं वक्षस्थलं प्रहृतवान् सः सो अहं प्रथमा विभक्ति द्वितीया विभक्ति कथं भवति मां पश्यतु मां वदतु मां अन्य किं मां स्वीकरोतु इति शिशुः वदति अस्तु कुत्र प्रहृतवान् वक्षस्थले प्रहृतवान् प्रहृतवान् इति क्रियापदं कः प्रहृतवान् सः प्रहृतवान् सः कं प्रहृतवान् मां प्रहृतवान् सः मां कुत्र प्रहृतवान् वक्षस्थले प्रहृतवान् वक्षस्थलम् इत्युक्ते चेस्ट् वक्षस्थले नवमौतिकम् इति अस्ति खलु कृष्णस्य वर्णनं
प्रहृतवान्
प्रकृतवान् इत्युक्ते ताडय लैक् ताडनं ताडितवान् सः ताडितवान् सः कं ताडितवान् मां ताडितवान् मां कुत्र ताडितवान् वक्षस्थले ताडितवान् प्रकृतवान् प्रहरणं कृतवान् अस्तु सो अग्रिमम् अपि पश्यामः गृहीतवान् कः गृहीतवान्
चोरः
आरक्षकः गृहीतवान् आरक्षकः कं गृहीतवान् चोरं गृहीतवान् सो चोरः प्रथमा विभक्ति चोरं गृहीतवान् आरक्षकः चोरं कुत्र गृहीतवान् कण्ठे गृहीतवान् अस्तु अन्यमपि पश्यामः व्याघ्रः हरिणः कण्ठः व्याघ्रः हरिणः कण्ठः गृहीतवान् व्याघ्रः गृहीतवान् प्रथमं गृहीतवान् कः गृहीतवान् व्याघ्रः कं गृहीतवान्
हरिणं गृहीतवान्
व्याघ्रः हरिणं कुत्र गृहीतवान् कण्ठे गृहीतवान् व्याघ्रः हरिणं कण्ठे गृहीतवान् सो अत्र हरिणी इति स्त्रीलिङ्गमस्ति चेत् कथं भवति गृहीतवान्
हरिण्यां कण्ठे गृहीतवान्
हरिणीमेव हरिणीं गृहीतवान् हरिणीं गृहीतवान् प्रथमं सो सो वि टेक् इट् वर्ड् बै वर्ड् गृहीतवान् कः गृहीतवान् व्याघ्रः गृहीतवान् व्याघ्रः कां गृहीतवान् द्वितीया विभक्ति कां गृहीतवान् हरिणीं गृहीतवान् हरिणीं गृहीतवान् हरिणीं कुत्र गृहीतवान् कण्ठे
गृहीतवान्
अस्तु अस्तु अग्रिमं उमाकृष्णन् भगिनी राक्षसी सीता केशाः गृहीतवती एकमेकं पदं स्वीकुर्मः भगिनि गृहीतवती का गृहीतवती
राक्षसी गृहीतवती
राक्षसी गृहीतवती राक्षसी कां गृहीतवती
राक्षसी सीतां गृहीतवती
राक्षसी सीतां गृहीतवती राक्षसी सीतां कुत्र गृहीतवती
राक्षसी सीता सीतां
केशेषु केशेषु गृहीतवती बहुवचनं केशेषु केशे केशयोः केशेषु केशेषु गृहीतवती केशेषु गृहीतवती अस्तु अग्रे
केशेषु गृहीतवती
राक्षसी सीतां केशेषु केशेषु गृहीतवती बिकास् इट् इस् केशः केशः बहुवचनं केशाः सपोसिङ्ग् इट् इस् केशा देन् इट् इस् केशाः अपि बट् दिस् इस् पुल्लिङ्ग So, oh. so whenever there is a doubt, immediately you go to the dictionary.
Okay.
So, this will...
Isn't it true that Keshaha should be Nitya Bahuvachanam? Because it can't be a Eka Vachanam.
Ama. Nishayana. 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 Nitya Bahuvachanam is correct.
Bhagini, if I say I found a hair in my food, then you will use singular, right?
Okay. Yes.
So, it cannot be always plural. It's only when you refer to the head of hair, then it is plural. But otherwise, you know, if you're saying, you know, I found, because I found hair in my food today. One single hair. So, that's
good
why
point,
I'm saying.
Right. Yeah, good point. Good point. Dhanyavadah. Astu, agree. Srinivasa Mahodaya. Balakaha. Anya Balakaha.
बालकः अन्यबालकं कपोले ताडितवान्
कपोले ताडितवान् कपोलः कपोलः इत्युक्ते चीक् चीक् कन्नं चीक् चीक् बालकः अन्यबालकं कपोले ताडितवान् अस्तु ताडितवान् अस्तु अग्रिमं महेश महोदय
आं भगिनि माता पुत्रः पुत्र्या ब्राकेट् पुत्र्या
प्रीत्या
प्रीत्या ऐ डिन्ट् अण्डर्स्टाण्ड् द ब्राकेट् माता पुत्रे
सो फर् रैट् नौ विल् विल् इग्नोर् द ब्राकेट् द ब्राकेट् सोरि माता
माता पुत्रं मस्तके ताडितवती
मस्तके ताडितवती कथं किमर्थम् इति
प्रीत्या इस् वित् लव्
अफेक्षनेट्लि प्रीत्या
प्रीत्या
प्रीतिः प्रीत्या प्रीत्या मस्तके ताडितवती
तृतीया विभक्ति
या तृतीया साधारणतया ताडनं ग्रहणम् इत्युक्ते ओन्लि वेन् इट् इस् नाट् डन् अफेक्षनेट्लि सो अत्र दे हेड् टु मेन्शन् अफेक्षन् माता माता पुत्रं मस्तके ताडितवती सो मस्तकं मस्तके बिकास् दिस् दिस् इस् दि अङ्गम् आफ् द पुत्रः
we can use shashti also here पुत्रकस्य मस्तके
पुत्रस्य मस्तके इस् वाट् वि जनरलि यूस् बट् हियर् स्पेसिफिकलि से
ओके
पुत्रस्य मस्तके ताडितवती मेक्स् अ लाट् आफ् सेन्स् खलु अस्तु बट् हियर् दे आर् स्पेसिफिकलि सेङ्ग् दट् दिस् इस् हौ इट् शुड् बि नाट् हियर् हियर् okay so they are specifying this is how
no I mean for this exercise this is fine but you can use shashti as well is what I'm asking
I'm saying let's follow this example that is what I'm
okay
astu astu anya ka asti ek nimsham aham
अहम् अस्मि भगिनि
अस्तु सन्ध्या अस्ति सन्ध्या अस्ति परमेश्वर महोदय अस्ति मालती अस्ति अस्तु तावदेव अस्तु सन्ध्या भगिनि अग्रिम
मल्लः अन्यमल्लम् उदरे ताडितवान् इस् इट् ओके भगिनि
अन्यमल्लम् उदरे ताडितवान् उत्तमं भगिनि सो ऐ वास् ट्रैङ्ग् टु फिगर् औट् द मीनिङ्ग् आफ् मल्लः मल्लः इत्युक्ते कः
रेस्लर्
मल्लयुद्धं करोति सः अस्तु परमेश्वर महोदय
योद्धः शत्रौ खण्डे प्रकृतवान्
प्रकृतवान् सो अत्र शत्रु इति द्वितीयाविभक्तिरूपं स्वीकरोति
शत्रुं
खण्डे प्रहरितवान् योधः शत्रुं कण्ठे
प्रहरितवान्
ताडितवान् सेम् थिङ्ग् ताडनं प्रहरणं समान अर्थकपदम् अस्तु
भगिनि एकः प्रश्नः अस्ति इन् द प्रीवियस् पेज्
अत्र वा
इत्यादि शब्दम् अहम् अवगतवती इत्यादिकम् इत्युक्ते किम्
इत्यादिकम् इस् दिस् एण्ड् अदर्स् इति
धन्यवादः इति आदिकम् इत्यादि वुड् मीन् एट्सेट्रा रैट्
आम् इत्यादि इत्यादि इत्यादिकम् like that it's the same you say like ityetasmin etasmin iti etasmin ityetasmin sandhi bhavati atra
okay astu okay dhanyavaad
astu astu agrimam atra sarvanama padanam abhyasah narayanah kaschana saralah janah saralah janah means simple person he speaks the truth and he lives a simple living iti saralah janah saha vivideshu janeshu vividhan bhavan pradarshayati different kind of affection and respect we will say bhavan pradarshayati bhavan feelings bhavan pradarshayati bhava patrani so who is the recipient of all these bhava pratamadi kramena sankhyaya nirdishtani so atra trini iti asti chet we have to go for the number 3 sankhyaya nirdishtani teshan सप्तम्यन्तरूपैः अधस्तनवाक्यानि पूरयत सप्तमी विभक्तैः अस्तु नारायणः सः अत्र अत्र एकम् अस्ति खलु सो अत्र एकम् इति पदस्य सप्तमीविभक्तिरूपं भवति सः पदम् अस्ति सः इति नारायणः तस्मिन् आदरं प्रदर्शयति नारायणः द्वे द्वे इति पार्श्वे एषः अस्ति कथं भवति परमेश्वर महोदय
नारायणः एषौ आसक्तिं प्रदर्शयति
सो अत्र प्रीतिं भवति परन्तु सः इति अस्ति चेत् तस्मिन् सप्तमी विभक्ति सः इति पदस्य सप्तमी विभक्तिरूपं तस्मिन् एषः इति पदस्य सप्तमी विभक्तिरूपं किम् सो इट् बिकम् एतस्मिन् सः तस्मिन् एषः एतस्मिन्
एतस्मिन् आसक्तिं प्रदर्शयति
नारायणः एतस्मिन् प्रीतिं प्रदर्शयति प्रीति नारायणः एतस्मिन् प्रीतिं प्रदर्शयति प्रदर्शयति अस्तु मालति भगिनि सा
सः
नारायणः
नारायणः सा सा ऐ डोन्ट् नो
यु डोन्ट् ओके नो प्रॉब्लम नो प्रॉब्लम ओ सा अत्र नास्ति
तस्यां
तस्यां
तस्या ओके
तस्यां
तस्या
तस्या तस्यामेव तस्यां
तस्यां
सो अत्र कथं सो अत्र अत्र भगिनी इन् द इन् द चार्ट् तद् इति अस्ति चेत् तस्यां सो दिस् इस् एक्चुलि सा प्रथमाविभक्तिरूपम् अस्ति सः सा अथवा तत्
सः सा तत्
प्रथमाविभक्तिरूपं तस्यां
नारायणः तस्यां प्रीतेषु
न न तस्यां आसक्तिं प्रदर्शयति नारायणः
तस्यां प्रीतिं प्रदर्शयति
प्रीतिम् इस् फार् द सेकेण्ड् वन् भगिनि द्वितीयपदम् अत्र आगच्छति अत्र तृतीयपदमस्ति सा
ओ सा ओके सा नारायणः तस्याः
तस्यां
तस्यां
आसक्तिम्
आसक्तिं प्रदर्शयति
प्रदर्शयति आसक्तिम् इत्युक्ते किम्
आसक्तिम् इस् यु आर् आस्किङ्ग् मी द मीनिङ्ग् आसक्तिं मीन्स् सम् इण्ट्रेस्ट् सम्
इण्ट्रेस्ट् एव अस्तु अत्र एषा इति अस्ति एषा अस्तु सागरि भगिनी
अहं वदामि वा
भवत्याः नाम न दृष्टवती अहम् अस्तु वदतु भगिनि
नारायणः एतस्यां विनयं प्रदर्शयति
एतस्यां विनयं प्रदर्शयति एषा एतस्यां विनयं प्रदर्शयति अन्य कोऽपि अस्ति वा
भगिनी विनयम् इत्युक्ते
उषा
उषा वा अस्तु स्वागतं विनयम् इत्युक्ते ह्युमिलिटि भगिनि ह्युमिलिटि अस्तु उषा भगिनि अग्रे
क्षम्यतां भगिनि मम नाम अत्र दृश्यते वा
अहम् एकवारं दृष्टवती इदानीमस्ति इदानीमस्ति अस्तु अस्तु उषा भगिनी
converted to Shashti, is it?
No, Saptami Bhagini. So, okay. Here it says Bhavan.
Bhavan.
The fifth one is Bhavan.
Saptami would be Bhavati?
Bhavati. Uttama. Narayanaha
Bhavati Vatsalyam Pradarshayati.
Bhavati Vatsalyam Pradarshayati. Vatsalyam ityukte?
Affection?
Affection. Affection. Okay. All this is affection. Preeti, affection. Vatsalyam, affection. Maitri means friendship.
Right.
Vatsalyam is affection towards a young child or what? Is it good change?
Yeah, it's like, it doesn't have to be very young child, but in generally it is young.
Younger.
Like, for example, the teacher will show to the young student. Like, we have seen Shankaracharya talk like that, right? Vatsa, like that. Vatsa.
Vatsa, yeah. So, in you, is it?
In you. Bhavati. Narayanaha Bhavati Vatsalyam Pradarshayati. Astu. Anya kopi asti va? यस्य नाम अहं न उक्तवती अस्तु सागरी भगिनी
आं भगिनी
क्षम्यतां भगिनि देर् इस् अ पवर् फेल्योर् अण्ड् यु पि एस् इस् नाट् सपोर्टिङ्ग् भगिनी इन् मै हौस् सो ऐ एम् फोर्स् टु शट् डौन् मै
सिस्टम्
ऐ विल् लिसन् टु द रेकार्डिङ्ग् भगिनी
निश्चयेन निश्चयेन महोदय धन्यवादः
भगिनी भवती विल् बिकम् भवत्यां
भवत्याम् अस्तु सागरी भगिनी वदतु
नारायणः भवत्यां श्रद्धा प्रदर्शयति
इट्स् ओके भवत्यां
मैत्रीं सोरि मैत्रीं प्रदर्शयति
मैत्रीं प्रदर्शयति उत्तमं केतकि भगिनी अग्रे अहम्
आं भगिनी सेवेन्थ् रैट् भगिनि नारायणः अहं
माम् इस् द्वितीया विभक्ति अहम् इस्
अहं मम
मयि
ओ सोरि मयि श्रद्धां
माम् इस् द्वितीया लैक् नो मां पश्यतु मां वदतु परन्तु इन् मी मयि
ओके हा ऐ डिडन्ट् सी दट् राइट
नौ यू नो भगिनी गुड् वेरी गुड्
मयि श्रद्धां प्रदर्शयति
वाट् डस् श्रद्धां मीन्
विश्वास
उत्तमं सो यु आर् टेलिङ्ग् नारायणः हेस् विश्वासम् इन् मी
राइट
Bhagini, I have a doubt. I might be completely wrong, but I thought Bhavati is also represents to be, right?
Is it? Uttamam Bhagini. Yeah, go ahead.
Yeah, so when we say Bhavati in this sentence, it's in the context of in you, right? So do we interpret what it means depending on the context?
Nischayana.
Okay.
You are not wrong at all, Bhagini. Thanks for the question. Astu. Agre. Savita Bhagini, te.
Te. Te saam.
नारायणः
तेषां स्नेहं नारायणः तेषां स्नेहं
तेषु भगिनि
तेषु वा ओके नारायण तेषु Sneham. What's the word there? I'm not able to see the word. After Sneham.
Pradarshayati.
Pradarshayati. Narayanaha Teshu Sneham Pradarshayati.
Narayanaha Teshu Sneham
Pradarshayati.
प्रदर्शयति अस्तु अग्रे शारदा भगिनी
आं भगिनि नारायणः एतेषु नम्रतां प्रदर्शयति
एतेषु नम्रतां प्रदर्शयति नम्रताम् इत्युक्ते
रेस्पेक्ट्
नम्रताम् इस् लैक्
Namaskaram.
Namaskaram is like that, yeah. Showing that you are very humble to them. You are very submissive, like that.
Okay.
Uttama.
Respect cannot be said for that.
No. Respect is adaram. But with respect, you are saying that I am bowing to you. I am being submissive to you. So, atra... When we use the word namaha like that, so namaha means your head is bowing down. That's what it means. I'm bowing to you, bowing down to you, bowing.
Excuse me, namrata is root word is namaha. Namrata.
Nam.
Root word.
Root nam. Word. Is I don't know.
Nam.
Nam is the is coming from the word nam. Nam. So if we look at the word
namda,
yeah, we'll see. We will see. Namra is humble. Root Namrata word, yeah, Namrata Strilinga, but the root word Ahamna Janam.
Doesn't matter.
Asta. Namratam Pradarshayami. I'm showing my humility, how humble I am, how submissive I am to you. Asta. Uma Krishnan Bhagini?
Aam Bhagini. नारायणः
भवति सो अत्र वेनेवर् वी हेव् अ बहुवचनं यु स्टार्ट् फ्रम् द एकवचनं भगिनि सो अत्र त्रीणि रूपाणि वदामः सो अत्र ते इति अस्ति चेत् तस्मिन् तयोः तेषां सः तौ ते खलु सः तौ ते
Is it so,
Bhavati? Punaha Bhavati Bhagini, I didn't hear you.
Is it Bhavati, Bhavatau?
Bhavati, Bhavatoho, Bhavatsu.
Bhavatsu, yeah.
Bhavatsu, Bhavati, Bhavatoho, Bhavatsu.
Bhavati, Bhavatoho, Bhavatsu.
Bhavatsu. So atra for the te it is sahataute kalo sahataute tasmin tayoho teshu
okay
so the next round is going to be strilinga tasyam tayoho tasu bhavatyam bhavatyoho bhavatishu
So what will come in that sentence? Bhavantah.
Narayanaha bhavatsu.
So bhavatsu.
Premam pradarshayati. Prema pradarshayati.
Prema pradarshayati.
Is it prema? No, prema eva. So this is also a word like nama.
Okay.
So it is like a naman, preman. Like that. So it is prema eva. Prema pradarshayati.
Okay. Prema pradarshayati.
Prema pradarshayati. Astu bhagini. So I just want to write down the words. Ekanimsham. Taah bhavatyah. Okay. Taah bhavatyah.
Bhagini, for the word prema, the dvitiya vibhakti is also prema, is it? No, not premam?
No. Etavayam. Astu. Agre, Srinivasa Mahodaya.
Om Bhagini.
Taha. तासु गौरवं प्रदर्शयति उत्तमं तस्यां तयोः तासु इट्स गुड टु से दिस थिंग देन इट विल गेट ड्रिल्ड इंटु योर हेड तस्यां तयोः तासु तासु अस्तु अग्रे महेश महोदय नास्ति संध्या भगिनी
नारायणः एतस्याम् एतस्योः एतासु एतासु भक्तिं प्रदर्शयति
एतासु भक्तिं प्रदर्शयति अस्तु सो परमेश्वर महोदय सो यु से भवत्यः
सॉरी आई मिस्ड दैट भगिनी सॉरी
इट्स ओके भगिनी इट्स ओके नारायणः
नारायणः भवत्यौ विधेयतां प्रदर्शयति
विधेयतां प्रदर्शयति सो अत्र भवत्यः इति प्रथमाविभक्तिरूपं किं महोदय भवत्यः इत्युक्ते
भवान्
भवती खलु भवती भवत्योः भवत्यः भवती नो नो डोन्ट् सारि सारि मास्तु अत्र भवती भवत्योः भवत् ऐम् सारि भवती भवत्योः भवत्यः अग्रे पश्यामः एकनिमिषम् भवती ऐम् सारि भवती भवत्यौ भवत्यः भवती भवत्यौ भवत्यः सो अत्र भवत्यां भवत्योः भवत्सु भवतीषु ऐ एम सेइंग इट ऑल रॉन्ग सॉरी भवत्यां भवत्योः भवतीषु भवान् इज भवत्सु भवतीषु भवत्यां भवत्योः भवतीषु ओके ऐ सेड इट रॉन्ग अगेन सो भवत्यां भवत्योः भवतीषु भवतीषु सो अत्र भवत्यः
नारायणः भवतेषु
विधेयतां प्रदर्शयति विधेयतां विधेयताम् इत्युक्ते अपि ह्युमिलिटि एव नम्रताम् इति विधेयता सम्यक् ओके So, it's good to know if you have any doubt. Astu, videyata, strilinga padam, videyataam pradashayati. So, atra sarvatra dvitiya vibhakti rupam bhavati. Okay, dvitiya vibhakti rupam. Dvitiya vibhakti rupam.
Agadi, artham kim? Videyataam?
Videyataam itukte submission, like a... vinayam namratam samanartaka padam narayanah bhavatishu videyatam pradashayati he is showing that he is very humble to you he is showing his humbleness to you to all of you like you know like this like I mean not right now in the olden days servants they will fold their hands they'll have their head bowed down a bit to show that they are very submissive
bhagini
वदतु.
एकः प्रश्नः, इन् दिस् होल् एक्सर्सैस् वि यूस् द द्वितीया विभक्ति फार् आल् द आसक्तिं स्नेहं. Yesterday we saw that it was all in Prathama Vibhakti.
Prathama Vibhakti when we use Shashti, Bhagini.
When we use Shashti.
Like you know, we say Narayanasya, I want Videyata Asti, like that. I'll show it to you, okay? I'll show you another exercise like that. Astu. Malati Bhagini? Malati Bhagini asti va? Astu. Gopika Bhagini? Astu. Usha Bhagini?
Bhagini?
Astu.
Which one am I doing?
The last one, Bhagini. Narayana.
Narayana. Can you... Visheshadaram.
Visheshadaram.
So that is a... what have you written there?
Vayam, sorry.
Asmakam.
Asmakam is... okay.
Is this correct? I thought that was plural. And Saptami, right?
Yeah, it's not Saptami, yeah.
Oh, it's not Saptami here?
This is Asmasu is Saptami.
Oh, sorry. Okay, Asmasu. Okay. Asmasu then it is. Asmasu Visheshadaram
Pradarshayati. Pradarshayati.
Should it not be Narayana? Okay, Narayana Pradarshayati. Okay.
Somebody asked a question, Prathama Vibhakti here, instead of Dvitiya Vibhakti. So, Atra Narayanasya Bhaktihi Asti. Supposing, I want to say, in us, like Vayam. So, Atra Narayanaha Asmasu Bhaktim Pradarshayate. But if we say this, Asmasu Narayanasya Bhaktihi Asti.
Avagatamba.
Astu. Narayanasya Bhaktihi. Or I'll make a short, Tasya Bhaktihi. So we either say, why is it going off? So we either say, Saha Bhaktim Pradarshayati. Saha Bhaktim Pradarshayati, Atava Tasya Bhaktihi Asti. Okay, but this does not change. Saha Asmasu Bhaktim Pradarshayate Atava Asmasu Tasya Bhaktihi Asti. Astu. Agre Anya Kimapi Vishesha Evam Nasti. Agre Vishesha Kimapi Nasti. Ekavachanam Bhavamsham. Saptami Vibhaktyantam Rupa. So these are all just Abhyasaha Eva. Astu. Vayam Idanim Abhyasa Darshanim Prati Gacchamaha. So Atra Vayam Etat Samapita Vantaha. Agre Kimasti Dvitiya Vibhakti Rupam Asti. Okay. So Atra Shashti Vibhakti, Saptami Vibhakti, Vibhaktim Purita Vantaha Vayam. Samapita Vantaha. Prashnaha Santiva Atra? Astu. Dvitiya Vibhakti Rupam Pashyamaha. Astu. पठति वा एकमेकं सागरी भगिनी?
माता रमेश किं करोति भवान्?
या दर्स अ मिस्टेक्, यु शुड बी
करोति नो,
या यु शुड बी करोति, या किं करोति भवान्? या
रमेशः पाठं पठामि अम्ब.
अस्तु, सो अत्र द्वितीयविभक्तिरूपम् अत्र अस्ति किं करोति. Whenever we say what are you doing, किं करोति, किं करोति. सो अत्र पाठम् अपि द्वितीया विभक्ति. प्रथमाविभक्तिरूपं किम् अत्र?
पाठः.
पाठः, पाठः बिकेम् पाठम्. सो देर् आर् सम् वर्क्. सो किं वदामि, धातु इति अस्ति खलु, धातु इति क्रियापदस्य मूलरूपं धातु इति. धातु द्विविधाः सन्ति, टू टैप्स्, द्विधाः. सो विश्वे द्विविधाः अथवा द्विधाः सन्ति, द्विधाः अथवा द्विविधाः सन्ति. एकम् अस्ति सकर्मक. एकनिमिषम्. सकर्मकधातु, अन्य अस्ति अकर्मकधातु. अकर्मकधातु अत्र पठामि, अहं पठामि. किं पठामि? पाठं पठामि. सो अत्र कर्मपदम् अस्ति खलु, पठामि, पट् पट् धातु इति अस्ति चेत् अत्र कर्मपदम् अस्ति, भवति. सो इट् बिलाङ्ग्स् इन् द सकर्मक. स मीन्स् विद् प्लस् इट् हेस् अ कर्म टु इट्. सो दिस् बिलाङ्ग्स् इन् द सकर्मक धातु विभजनम्. अवगच्छन्ति वा?
आं भगिनि.
अस्तु, उत्तमं. केतके भगिनि अग्रे.
आं भगिनि. माता वत्स आपणं गत्वा लवणं शर्कराम् आडकिं गुडं च आनयतु. रमेशः भवती भगिनीं वदतु अम्ब.
अस्तु अस्तु अस्तु.
वाट् इस् आडकिम्?
Aadakim is like a type of a piece, bhagini, like the pigeon piece, like there are so many different types of piece kalo, tat ekam asti. Aadakim.
It's not adrak. No.
I don't know.
Inji illa,
right? Inji illa, inji. It's not ginger. It is like a pea which has the black in the middle. मध्ये कृष्णवर्णः अस्ति.
ब्लाक् ऐड् बीन्.
ब्लाक् ऐड् बीन्.
ओके, अस्तु भगिनि.
अस्तु, अत्र आपणं गत्वा, गत्वा इति रूपं किं? गत्वा त्वान्तरूपं, त्वान्तरूपम्. ओके, सो गत्वा त्वान्तरूपम्. सो अत्र गत्वा, वाट् गत्वा, किं गत्वा इति प्रश्नः अस्ति चेत् उत्तरं भवति वा? न खलु. किं पठति? पाठं पठामि, ग्रन्थं पठामि, पुस्तकं पठामि, कवितां पठामि. किं गच्छति?
किं गच्छति? रमेशः गच्छति.
नो, कः गच्छति? रमेशः गच्छति.
किं गच्छति? आपणं गच्छति.
कुत्र
गच्छति?
अकर्मक. सो केतकी भगिनि, सो आपणम् इस् कुत्र गच्छति? आपणं गच्छति. कः गच्छति? रमेशः गच्छति. परन्तु वाट् गच्छति, किं गच्छति,
किं गच्छति
उत्तरं नास्ति, उत्तरं नास्ति भगिनि अत्र. उत्तरं नास्ति.
रमेशं गच्छति.
नो, रमेशं न गच्छति. कः गच्छति? कः गच्छति? रमेशः गच्छति. कुत्र गच्छति? आपणं गच्छति.
भगिनि, why he is going to bring the lavanam and sharkaram?
No, this belongs in the akarmaka dhatu.
Oh, akarmaka dhatu.
So there are dhatus which cannot have the answer for kim. Udaharanartham, saha hasati, kim hasati?
No answer.
Saha patati, kim patati?
No answer.
Patam patati. Patati means we get an answer. So we have akarmaka, sakarmaka dhatu. So gamanam is an akarmaka dhatu. But kutra gachati, we get an answer. कुत्र गच्छति? आपणं गच्छति. कः गच्छति? रमेशः गच्छति.
बट् अकर्मक
बट् फार् किं गच्छति वि केनाट् गेट् एन् आन्सर्.
ओके ओके
डिपेण्ड्स् आन् दि यूसेज् वेदर् इट् इस् अकर्मक और् सकर्मक डिपेण्ड्स् आन् द वे इट् इस् यूस्ड् इन् द सेण्टेन्स् रैट्.
It depends on, no, but certain karma padam, means certain kriya padam are akarmaka. Classification, like that beginning.
Oh, okay. No, what I meant is that gam, you said, right, is akarmaka.
Akarmaka.
But can we also use it in a sakarmaka way, the same dhatu?
No.
No, it's always there. It's always called
an akarmaka. Okay. Astu. So, atra, lavanam. Moolarupam lavanam eva. Lavanam. Sharkaram. Moolarupam sharkara.
Sharkara.
Adakim. Moolarupam kem? Adaki. So
pigeon pea,
black eyed peas, pigeon pea, like that. So atra sharkaram iti asti chet moola roopam sharkara. Adaki iti asti moola roopam adaki. But for we have a confusion. Hello. Lavanam moola roopam lavanam meva, lavanam. गुडं मूलरूपं गुडः. पुल्लिङ्ग नपुंसकलिङ्ग आकारान्त स्त्रीलिङ्ग एकारान्त स्त्रीलिङ्ग च आनयतु. He tells the son. आनयतु. अस्तु अग्रे सविता भगिनी. अस्तु भवती भगिनीं वदतु.
अहं वदामि.
न वदतु. भगिनीम् इति मूलरूपं किं? भगिनीं
भगिन्यः.
न, भगिनीं वदतु इति द्वितीयविभक्तिरूपं. प्रथमाविभक्तिरूपं किं?
भवती
भगिनी एव. भगिनी
भगिनी अहं भगिनी.
सो यु आर् हियर् भगिनी, रैट्? सो ऐ एम् सेयिङ्ग् भगिनीं वदतु. टाक् टु द भगिनी.
ओ भगिनी. ओके
भगिनी सम्बोधनं विल् बि भगिनी.
भगिनी. अस्तु
भगिनी. प्रथमा इस् भगिनी. भगिनी मिस् द्वितीया.
करेक्ट्. भगिनी मिस् सम्यक् सम्यक् भगिनी. सो अत्र रमेशः इस् टेलिङ्ग् द मा, ओके, भवती भगिनीं वदतु अम्ब. वाट् डस् दट् मीन्? यु टेल् द
सिस्टर्.
पासिङ्ग् द बक्. एक्साक्ट्लि. सो हि इस् टेलिङ्ग् भवती मीन्स् इस् टाकिङ्ग् टु अम्ब. भवती भगिनीं वदतु. You tell the sister to go and get all these things. Bhavati bhaginim vadatu. So atra vadatu iti kriya padam. Sakarmakava akarmakava vadatu. Sakarmaka. Okay, definitely sakarmaka.
Kim vadatu.
Kim vadatu, patam vadatu, slokam vadatu. We get an answer right away. Vadatu.
Bhagini, you said earlier, Bhagini, Moola Rupam Kim?
Bhagini.
Oh, Bhagini will be the Moola Rupam.
Moola Rupam, Bhagini. So for Akaranta Srilinga, Ekaranta Srilinga, the Prathama Vibhakti Ekavachana Rupam will be the Moola Rupam.
Astu Bhagini.
Mahodaya, isn't the word Bhavati redundant there? Suppose Ramesha says Bhagini Vadatu Amba.
Yes, it is redundant.
Dhanyavada.
Like over here, Vatsa Apanam Gatva Dadadada Anayato. She didn't say Bhavan Anayato, but Bhavan is understood.
That's why he is telling that tell sister to bring everything.
Go tell sister.
You know, I actually got confused because of the Bhavati. You know, I was trying, before you explained it, I was trying to figure out what it meant. You know? Bhavati, Bhaginim, Vadatu, Amba. I was wondering who the Bhavati is.
Savita Bhagini.
Aam Bhagini. Mata. Sa Avakaran Kshiptva. पात्राणि क्षालयति जलेन लता सिञ्चति ततः कर्मकारिः क्षेत्रं प्रापयति एवं तस्याः बहूनि कार्याणि सन्ति.
So the Amba is telling, she is doing so much work. Sa avakaran kshiptva patrani kshalayati. Patrani bahuvachana पुंसकलिङ्ग द्वितीया विभक्ति. पात्रं पात्रे पात्राणि पात्रं पात्रे पात्राणि. ओके, वेनेवर वी से नी वी नो इट इज नपुंसकलिङ्ग बहुवचनम्. एंड देन वेनेवर वी से आन पुल्लिङ्ग बहुवचनम्. अवकरः अवकरौ अवकराः प्रथमा विभक्ति.
व्हाट इज द मीनिंग भगिनी ऑफ अवकरः?
Garbage. Avakarau, avakarah, pratama vibhakti. Avakaram, avakarau,
avakaran.
Avakaran, dvitiya vibhakti. Patrani, chiptva. So atra, chipati, kim chipati?
Patrani chipati.
Patrani na, avakaran chipati.
Avakaran
chipati. So is chipati a sakarmaka or akarmaka?
Sakarmaka.
Sakarmaka. Sakarmaka. Chalayati. Kim chalayati?
Patrani chalayati.
Patrani chalayati. Sakarmakava, akarmakava?
Sakarmaka.
सकर्मकः अस्तु. जलेन लताः सिञ्चति. लताः. सो द्वितीया विभक्ति बहुवचनं समानरूपं. यथा प्रथमा विभक्ति लता लते
लताः लता लते लताः
लतां लते लताः
लते लताः
लतां लतां लते लताः द्वितीया विभक्तिरूपं लतां लते लताः लताः सिञ्चति. सिञ्चति मीन्स् टु वाटर् इट् टु स्प्रिङ्कल् वाटर्. ओके, किं सिञ्चति?
लताः.
लताः सिञ्चति. सो लता सो सिञ्चति इस् अ सकर्मक अपि.
सकर्मक.
जलेन
किं सिञ्चति?
जलेन विभजति. केन चिन्तते? केन सिञ्चति? केन सिञ्चति? जलेन सिञ्चति.
जलेन
ततः कर्मकरीः क्षेत्रं प्रापयति. Prapayati means make them reach. Okay, this is called a nich pratyaya. Like karoti, karayati, making you do something, making somebody else do something. That is karayati. Asto, so, agrima varge, itopi adhikam patamaha.
Idam bhagini.
Idani samapaya. Bhagini vadato, what did you say?
Little confusion.
Confusion, okay. इदानीं शान्तिमन्त्रं
ॐ सर्वे सन्तु सुखिनः सर्वे सन्तु निरामया
सर्वे
भद्राणि पश्यन्तु
मा
कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ
धन्यवादः
धन्यवादः भगिनि
धन्यवादः प्लीज़ सेण्ड् दट् सप्तमी टेबल् प्लीज़
ओ